एष रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। देशस्य प्रायो भूभागेषु सम्प्रति वृष्टिः जायमाना वर्तते। जलवायु विज्ञान विभागस्य अनुसारेण सुदूरपश्चिम कर्णाली प्रदेशयोः कतिपय स्थानेषु अन्य प्रदेशानां प्रायः स्थानेषु च सम्प्रति वृष्टिः जायमाना स्थिति सूचितम् वर्तते। एतेषु स्थानेषु कतिपय स्थानेषु भीषण वृष्टिः, कतिपय स्थानेषु मध्यमस्तरस्य वृष्टिश्च जायमाना विद्यते इति विभागस्य वरिष्ठ जलवायु वातावरणविद् मीन कुमार अरियालः सूचितवान् वर्तते। नैरन्तर्यस्य एवं वृष्टेः कारणेन वर्षाज विपदः सम्भावनायाः सत्वात् सावधानताम् अवलम्बितुं विभागेन सर्वे नागरिकाः अनुरुद्धा सन्ति। सहैव एतदवधौ मार्गाणाम् अवरोधस्य सम्भावनायाः विद्यमानत्वात् विभागः तत्परावस्थायां सावधानेन स्थितोऽस्तीति सम्बद्धाधिकारिभिः सूचितं वर्तते। अत्रान्तरे सरला हिरौतहट जनपदयोः उपत्यकायां च प्रवहत्यां बागमती नद्याम् अस्य वर्षस्यैव उच्चस्तरीयः जलप्लवः आपन्नोऽस्ति। नुन्थरवर्तिन्यां बागवती नद्याम् अवस्थिते पधिरा दोभान जलमापन केन्द्रे ह्यतिवा विहितस्य जलमापनस्य अनुसारेण बागवत्याः जलस्तरः अस्य वर्षस्यैव अधिकतमः 10.93 मीटरमितः मापितोऽस्ति। अत्रान्तरे नैरन्तर्यस्य वृष्टेः कारणेन वर्षाज विपदः सम्भावनां समाकलय्य मुगलिन नारायणगढ मार्गखण्डे यातायात साधनानां सञ्चालनं निषिद्धमस्ति। चितवन जनपद प्रशासन कार्यालयस्य अनुसारेण वृष्टिजः विपदः संकटं विचार्य विभिन्नेषु स्थानेषु भूस्खलनेन मार्गस्य अवरोधनाच्च अत्र खण्डे यातायात साधनानां सञ्चालनं निषिद्धमस्ति। एवमेव सम्प्रति काष्ठमण्डप उपत्यका प्रवेशकयोः कान्ति लोकपथे भीमफेदी कुलेखानी मार्गे च यातायात साधनानां सञ्चालनं निषिद्धं वर्तते। वृष्टेः नैरन्तर्यस्य कारणेन विपदः सम्भावनायाः सत्वात् सूक्ष्मतया ज्ञात्वैव यात्रां विधातुं प्रहरिणा सर्वे नागरिकाः अनुरुद्धा वर्तन्ते। कालीकोट जनपदे भूस्खलने निपत्य द्वौ जनौ मृतौ स्तः। कालीकोट जनपदस्य सान्ने त्रिवेणी ग्रामपालिकायाः षष्ठ वडा क्षेत्रस्य काप्रीखोला स्थाने भूस्खलने निपत्य सान्ने त्रिवेणी ग्रामपालिकायाः षष्ठ वडा क्षेत्रस्य 47 वर्षीयः मन्दिर साउद, 67 वर्षीयः लालबहादुर साउद च घटनास्थले एव मृतौ इति कालीकोट जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। वृष्टेः अनन्तरं दूरापन्नेन भूस्खलनेन अवरुद्ध कालीगण्डकी तटीय मार्ग 8 घण्टानाम् अनन्तरं सञ्चालितोऽस्ति। तटीय मार्गस्य अस्य बागलुङ्ग खण्डस्य जैमिनी नगरपालिकायाः 8 वडा क्षेत्रस्य बेलबगर स्थाने ह्य भूस्खलनेन मार्ग अवरुद्ध आसीत्। प्रधानमन्त्रिणा बालेन्द्र शाहेन सप्तषु एव प्रदेशेषु सौविध्ययुतस्य जलनोपचार केन्द्रस्य स्थापनायाः योजनां तत्कालमेव अग्रे सारयितुं निर्देशनं दत्तमस्ति। प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य स्वास्थ्य विज्ञान प्रतिष्ठानानाम् उपकुलपतिभिस्सह सम्भूते विमर्शने प्रधानमन्त्रिणा शाहेन सर्वकारीय चिकित्सालयेषु जलनोपचार कक्षाणां सुदृढीकरणाय आवश्यकीं योजनाम् अग्रे वर्धयितुं च निर्दिष्टमस्ति। तदवसरे प्रधानमन्त्री शाहो गभीर प्रकृतिकानाम् अग्निदग्ध रोगिणां जनानां समये एव गुणस्तरीयोपचारस्य व्यवस्थां सुनिश्चेतुं संघस्य प्रदेशानां च स्वास्थ्य संस्थाभिस्सह आवश्यकं प्रभावपूर्णञ्च समन्वयं विधातुं च निरदिशत्। प्रधानमन्त्री शाह विपन्नानाम् असहायानां च जनानां कृते स्वास्थ्य सेवां विस्तारयितुं नैज चिकित्सालयैः बहिरंग सेवायाः न्यूनातिन्यूनं प्रतिशतं दशांकै सेवा सौविध्यस्य प्रदानत्वेन व्यवस्थां विधातुं निरदिशत्। विमर्शनक्रमे उपकुलपतिभिः चिकित्सा शिक्षायाः गुणस्तरस्याभिवृद्धये स्वास्थ्य सेवा प्रवाहे सुधाराय चिकित्सालयानां स्वच्छीकरणाय विशेषज्ञयुतायाः स्वास्थ्य सेवायाः विस्ताराय अनुसन्धानस्य प्रवर्धनाय पूर्वाधार विकासाय च परामर्शाः प्रस्तुताः आसन्। पारपत्र विभागेन ह्यस्तन दिवसात् नवीनस्य पारपत्रस्योत्पादनस्य व्यवस्थापनस्य च प्रणाल्याः माध्यमेन सेवा सञ्चालिता अस्ति। तथ्यांक स्थानान्तरणस्य क्रमे आसन्नैककोटीनां नेपालीनां पारपत्र सम्बद्धं विवरणं सुरक्षितरूपेण नवीनायां प्रणाल्यां स्थापितमस्ति इति विभागेन ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य संसदीय दलस्य नेता भीष्मराज आङदम्बे निगदति देशम केन्द्रीय संस्थाप्य प्रतिनिधि सभायाम प्रमुख प्रतिपक्षी दलस्य रूपेण रचनात्मिका सक्रिय आज भूमिका निरूह्यते। दल संसदीय दलस्य कार्यालय ह्य पत्रकारै सह नेता आङदम्बे देशम केन्द्रीय संस्थाप्य सत्ता पक्षमपि संसदम जनतांश प्रति उत्तरदायिनम विधातुम समीचीना भूमिका निरूह्यते इति प्रावोचत। दलस्य प्रमुख सचेतक पदीयावास सना थापा संसद प्रभावकारितायै विमर्शनाय दलेन प्राथमिकता दीयते इत्युक्तवती। राष्ट्रिय सभान्तर्गताया विकास आर्थिक विषय सुशासन समितेः उपवेशे मधेश प्रदेशस्य पेयजलस्य स्वच्छताया जलस्रोत व्यवस्थापन सम्बद्धस्य च अध्ययन प्रतिवेदनस्य प्रारूपम् आधृत्य विमृष्टमस्ति। सीमा प्रासादे ह्य उपविष्टे समितेः उपवेशे सम्बद्धै उपवेशे सांसदै मधेश प्रदेशे पेयजलस्य स्वच्छताया शौचालय व्यवस्थापन सम्बद्धायाश्च जनसंचेतनाय चुरेक्षेत्रस्य दोहनस्य नियन्त्रणस्य चुरेक्षेत्रे वृक्षरोपणस्य च विषयेभ्य प्राथमिकता प्रदानार्थं बलं दत्तम् आसीत्। उपवेशे समितेः सचिवः डा रोजनाथ पाण्डे प्रारूप प्रतिवेदने पुनर्भरण क्षेत्रस्य संरक्षणाय भूपयोग नियन्त्रणस्य माध्यमेन चुरे शिवालिक क्षेत्रस्य संरक्षणस्य भूमिगत जलस्य कृते अनुमतिपत्रस्य व्यवस्थायाः संवेदनशील क्षेत्रेष् भूमिगत जल प्रयोगस्य सीमा निर्धारणस्य च व्यवस्था समाविष्टा अस्ति इति अज्ञापयत्। प्रतिनिधि सभाया शिक्षा स्वास्थ्य सूचना प्रविधि समितेः उपवेशे एकाशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयाया राष्ट्रिय विधि विज्ञान प्रयोगशालाया कार्यकर्तव्याधिकार निर्देश निदर्शन परीक्षणस्य विषयेष् विमृष्टमस्ति। विमर्शने सांसदः संचालक समित्या प्रयोगशाला सम्बद्धायाः विज्ञतायाः कृते अन्तर्राष्ट्रिय प्रशिक्षणे प्रेषणस्य व्यवस्था विधेयके समावेशनीया इत्यत्र बलं दत्तवन्तः। नेपाल दूरसंचार प्राधिकरणस्य अध्यक्षपदे अर्जुन घिमिरे प्रेस काउन्सिल नेपाल इति संस्थायाः अध्यक्षपदे उमेश श्रेष्ठश्च नियुक्तौ स्तः। मन्त्री परिषदः अस्यैव आषाढमासस्य चतुर्विंश दिवसस्य निर्णयस्य अनुसारेण घिमिरे श्रेष्ठश्च नियुक्तौ स्तः। नियुक्तिपत्रस्य प्रदानस्य क्रमे संचार मन्त्री डा विक्रम तिमिलसेना नियामकै निकायै स्वस्व भूमिकायाः निर्वाहाय गभीरैर्भाव्यम् इत्यत्र बलं प्रादात्। इति समाचारः।